कामाक्षिस्तोत्रम् कल्पनाकः पुष्पजाल विलसन् नीलालकां मातृकां कान्तां कञ्जदळेक्षणां कलिमलप्रध्वंसिनीं कालिकां काञ्चीनापुरहारदामसुभगां काञ्चीपुरीनायिकां कामाक्षीं करिकुम्भसन्निभकुच वन्दे महेशप्रिया काशाभांशुकभासुरां प्रविलसत् कोशातकी सन्निभां चन्द्रार्कानललोचनां सुरुचिरालङ्कारभूषोज्ज्वलां ब्रह्मश्रीपतिवासवादिमुनिभिः संसेवितांग्रिद्वयां कामाक्षीं गजराजमन्दगमनां वन्दे महेशप्रियां ऐं क्लीं सौरितियां वदन्ति मुनयस्तत्त्वार्थरूपां परां वाचां आदिमकारणं हृदि सदा ध्यायन्तियां योगिनः बालां फालविलोचनां नवजपावर्णां सुषुम्नाश्रितां कामाक्षीं कलितावतं ससुभगां वन्दे महेशप्रियां यत्पादाम्बुजवेणुलेशमनिशं लब्ध्वा विधत्ते विधिर्विश्वं तत्परिपाति विष्णुरखिलम् यस्याः प्रसादाच्चिरं रुद्रः संहरति क्षणात् तदखिलं यन्मायया मोहितः कामाक्षीम् अतिचित्रचारुचरितं वन्दे महेशप्रियां सूक्ष्मात् सूक्ष्मतरां सुलक्षिततनुं क्षान्ताक्षरैर्लक्षितां भिक्षाशिक्षितराक्षसां त्रिभुवन क्षेमं करीम् अक्षयां साक्षाल्लक्षणलक्षिताक्षरमयीं दाक्षायणीं साक्षिणीं कामाक्षीं शुभलक्षणैः सुललितां वन्दे महेशप्रियाम् ओंकाराङ्गणदीपिकाम् उपनिषत्प्रासादपारावतीम् आम्नायाम्बुदिचन्द्रिकाम् अघतमःप्रध्वंस हंसप्रभाम् काञ्चीपट्टण पञ्जरान्तरशुकीम् कारुण्यकल्लोलिनीम् कामाक्षीम् शिवकामराजमहिषीम् वन्दे महेशप्रियां ह्रीं करात्मकवर्णमात्रपठनात् ऐन्द्रीं श्रियं तन्वतीं चिन्मात्रां भुवनेश्वरीं अनुदिनं भिक्षाप्रदानक्षमां विश्वाघौघनिवारिणीं विमलिनीं विश्वम्भरां मातृकां कामाक्षीं परिपूर्णचन्द्रवदनां वन्दे महेशप्रियां वाग्देवीति च यां वदन्ति मुनयः क्षीराब्धिकन्येति च क्षोणीभृत्तनयेति च श्रुतिगिरो याम् आमनन्ति स्फुटम् एकानेकफलप्रदां बहुविधाकारस्तनुस्तन्वती कामाक्षीं सकलार्तिभञ्जनपरां वन्दे महेशप्रियां मायाम् आदिमकारणं त्रिजगतां आराधिताङ्घ्रिद्वयाम् आनन्दामृतवारिराशिनिलयां विद्यां विपच्छिद्धियाम् माया मानुषरूपिणीं मणिलसं मध्यां महामातृकां कामाक्षी करिराजमन्दगमनां वन्दे महेशप्रिया कान्त कामदुघा करीन्द्रगमना कामारि वामाङ्कगा कल्याणि कलितावतार सुभगा कस्तूरिका चर्चिता कम्पातीररसाल मूलनिलय कारुण्य कल्लोलिनी कल्याणानि करोतु मे भगवती काञ्चीपुरी देवता।